अथ श्री शुक्राष्टोत्तरशतनामस्तोत्रम्।
शुक्रस्तुतिस्शुभगुणस्शुभदस्शुभलक्षणः शोभनाक्षस्शुभ्ररूपस्शुद्धस्फटिकभास्करः दीनार्तिहारको दैत्यगुरुर्देवाभिनन्दितः काव्यासक्तः कामपालः कविः कल्याणदायकः भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः भोगजो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः निधिर्निखिलशास्त्रज्ञो नीतिविद्यादुरन्धरः सर्वलक्षणसम्पन्नः सर्वावगुणवर्जितः समानाधिकनिर्मुक्तः सकलागमपारगः भृगुर्भोगकरो भूमीसुरपालनतत्परः मनस्वीमानदो मान्यो मायातीतो महाशयः बलिप्रसन्नो भयदो बली बलपराक्रमः भवपाशपरित्यागो बलिबन्धविमोचकः धनाशयो धनाध्यक्षो कम्बुग्रीवः कलाधरः कारुण्यरससम्पूर्णः कल्याणगुणवर्धनः श्वेताम्बरश्वेतवपुश्चतुर्भुजसमन्वितः अक्षमालाधरो चिन्त्य अक्षीणगुणभासुरः नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः चिन्तितार्थप्रदस्यान्तमतिश्चित्तसमाधिकृत् आधिव्याधिहरो भूरिविक्रमपुण्यदायकः पुराणपुरुषः पूज्यः पुरुभूतादिसंयुतः अजेयो विजितारातिर्विविधाभरणोज्ज्वलः कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः मुक्ताफलसमानाभो मुक्तिदो मुनिसंयुतः रत्नसिंहासनारूढो रथस्थो रजितप्रभः सूर्यप्राज्ञेशसञ्चारस्सुरशत्रुस्सुहृत्कविः तुलावृषभराशीषो दुर्धरो धर्मपालकः भाग्यजो भव्यचारित्रो भवपाशविमोचकः गौडदेशेश्वरो गोप्ता गुणीगुणविभूषणः ज्येष्ठा नक्षत्रसम्भूतो ज्येष्ठश्रेष्ठः शुचिस्मितः अपवर्गप्रदोऽनन्तः सन्तानफलदायकः सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः।
इति श्रीशुक्राष्टोत्तरशतनामस्तोत्रम्।